प्रथमपि हि लभन्ते भेदविज्ञानमूलाम् अचलितमनुभूतिं ये स्वतो वान्यतो वा प्रतिफलननिमग्ना नन्तभावस्वभावैर्मुकुर्वद्विकाराः सन्ततं स्युस्त एव।